वर्णाद्यैः सहितस्तथा विरहितो द्वेधास्त्यजीवो यतो नामूर्तत्वमुपास्य पश्यति जगज् जीवस्य तत्त्वं ततः इत्यालोच्य विवेचकैः समुचितं नाव्याप्यते व्यापि वा व्यक्तं व्यञ्जित जीवतत्त्वमचलं चैतन्यमालम्ब्यताम्।